एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षद्वयस्य प्रधानमन्त्रिणा केपी शर्मा ओलिनः पुष्पकमल दाहाल प्रचण्डस्य च मध्ये दले उत्पन्नायाः समस्यायाः समाधानस्य विषये ह्यो विमरिष्टम्। प्रधानमन्त्री निवासे बालवाटारस्थाने विहिते तस्मिन् विमर्शने दलस्य आन्तरिक पश्चात्तन घटनाक्रमस्य सामयिक विषयस्य च सम्बन्धे वार्तायां विहितायां सत्यमपि निष्कर्षा निष्कासितो नास्ति। विमर्शनस्य निरन्तरम् अग्रे वर्धापनस्य विषये अध्यक्षद्वयस्य मध्ये सहमति धृतेति अध्यक्षस्य दाहालस्य संचार संयोजकः विष्णु सापकोटा अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समितेः ह्य आकारितः उपवेशः स्वश्रावणस्य षष्ठे दिवसे पूर्वाह्नस्य एकादशवादने उपवेशनत्वेन स्थगितीकृतो वर्तते। आषाढस्य दशमे दिवसे प्रारब्धः नेकपा दलीय स्थायी समितेः उपवेशः दलस्य आन्तरिक विवादस्य वर्धनमनु दलाध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये सहमतेः अन्वेषणस्य कारणं प्रदर्श्य वारम् स्थगितीकृतो वर्तते। नेपाली कांग्रेस दलेन दलस्य चतुर्दश महाधिवेशनस्य कार्यतालिकायाः सार्वजनिककरणेन सहैव राज्यस्य पुनः संरचनायाः अनुसारेण अवशिष्ट समायोजन जनपदेषु दलस्य अन्तरिम संरचना समायोजनम् अन्तिम चरणे प्राप्तमस्तीति ज्ञापितमस्ति। अद्यावधि सप्तषष्ट्यां जनपदेषु समायोजनम् सम्पन्नमस्ति। अवशिष्ट जनपदेष्वपि निर्धारित समय एव भविष्यतीति नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समितेः संयोजकः राधेश्याम अधिकारी अज्ञापयत्। एवमेव केन्द्रीय कार्यालयात् अद्यावधि पञ्चाशता जनपदैः क्रियाशील सदस्यतायाः आवेदनानि नीतानि सन्ति। अवशिष्ट जनपदेष्वपि निर्धारित समय एव प्रापणत्वेन कार्याणि विधीयमानानि सन्तीति नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिव कृष्णप्रसाद पौडेलः अज्ञापयत्। न्यूनचापीय रेखायाः नेपालस्य निकटे प्राप्त्यासहैव आराष्टम् गतदिनात् जलवायु सक्रियौस्त। गतप्रातःकालात् आराष्टम् अधिकांश भागेषु वृष्टिरस्ति। मुख्यतः द्वितीय पञ्चम प्रदेशयोः गण्डकी बागमती प्रदेशयोश्च अधिकांश स्थानेषु वृष्टिरस्तीति जलवायु विज्ञान विभागेन ज्ञापितम् वर्तते। गताषाढमासस्य अष्टाविंशे उनत्रिंशे च दिवसयोः दुरापन्नाभ्याम् जलविप्लव भूस्खलनाभ्याम् तनहु जनपदस्य म्याग्दे ग्रामपालिकायाः एकसप्ततिः परिवाराः विस्थापिताः सन्ति। अत्रान्तरे तनहु जनपद प्रशासन कार्यालयेन जल विप्लव भूस्खलनाभ्यां जनपदे विहितायाः क्षति विवरणं संकल्यमानमस्तीति ज्ञापितमस्ति। प्रतिनिधि सभायाः विकास प्रविधि समित्या देशस्य रणनीति मार्गेषु विद्यमानानां दुर्बल सेतूनां वित्तीय व्यवस्थां सुनिश्चित्य वर्तमानार्थिक वर्षे निर्माण कार्ययोजनाया सहितां प्रक्रियां प्रारब्धं सर्वकारः निर्दिष्टो वर्तते। समितेः गतदिवसीयो उपवेशेन टेकुस्थितः विष्णुमत्याः सेतुः तीनकुनेवर्ती बागमत्याः सेतु मूलराजमार्गान्तर्गतः बागमत्याः सेतुः रौतहट जनपदस्य टिकुलियाघाट स्थितः सेतुश्चेति महत्वपूर्णानां सेतूनां निर्धारित समय असम्पन्नतायाः कारणस्य असम्पादित कार्येभ्यः निर्माण संस्थानेभ्यो विहितस्य दण्डनस्य च विवरणेन सहिताम् आगामिनीं योजनां च प्रस्तोतुं भौतिक पूर्वाधार यातायात मन्त्रालयः निर्दिष्टोऽस्ति। उपवेशे भौतिक पूर्वाधार यातायात मन्त्री वसन्त कुमार नेवाङ सेतूनां निर्माणे समस्यास्थिति स्वीकुर्वन् अतर्कयत् मन्त्रालयस्य प्राविधिक जनशक्तेः अभावस्य समाधानम् निर्माण संस्थानानां क्षमतायाः अभिवर्धनम् च आवश्यके स्तः। असौ वार्षिकरूपेण शतद्वयात् शतत्रय पार्यन्तिकानां सेतूनां निर्माणम् सम्पद्यमानम् वर्तते। एवम् साम्प्रतमपि आसन्न सहस्रम् पञ्चशतम् च सेतवः निर्माणाधीनावस्थायाम् विद्यन्ते इति अज्ञापयत्। मन्त्रालयस्य सचिवः देवेन्द्र कार्की अनुबन्ध विसंविदायाः अनुसारेण निर्माण सम्पादनात् पराङ्मुखेभ्यो निर्माण संस्थानेभ्यो दण्डनस्य अग्रे वर्धापनस्य क्रमे एतद्विषयस्य न्यायालयम् यावत् प्रापणेन कतिपय निर्माण कार्याणि अवरुद्धानि सन्तीति समस्पष्टयत्। प्रतिनिधि सभायाः महिला सामाजिक समित्या महिलायाः शान्तेः सुरक्षायाश्च सम्बद्ध विषये विकसित सूचकान् प्रयुज्य नेपालस्य विद्यमानावस्थां परिमातुं तस्याः परिणामं ज्ञापयितुं च महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयः निर्दिष्टो वर्तते। समित्या गतदिने आयोजिते महिलायाः शान्ति सुरक्षयोः विषये प्रदेश सभानां सामाजिक समितीनां सम्बद्ध सभापतिभिः सांसदैश्च सह अनुभवस्य आदान प्रदान कार्यक्रमस्य पश्चात् सभापति निरुदेवी पालः महिलायाः शान्ति सुरक्षा सम्बद्धा राष्ट्रसंघीय कार्यसूची पक्षराष्ट्रं वर्तते इति ज्ञापयन्ती तद्विषयकं परिणामं लिखितरूपेण समितौ ज्ञापयितुं मन्त्रालयं निरदिशत्। स्वास्थ्य जनसंख्या मन्त्रालयेन विदेशात् आगतानां सर्वेषां जनानां कोविड 19 पीसीआर विधेः परीक्षणं विधास्यते। मन्त्रालयस्य उच्चस्तरीय समिते गतदिने उपविष्टेन उपवेशेन विमानमार्गेण आगतानां जनानां पञ्चदिनानि यावत् नियन्त्रणकक्ष निवासनमनु स्थलमार्गेण आगतानां जनानां सम्बद्ध स्थानस्य सुरक्षणावासे निवासनस्य च पश्चात् पीसीआर परीक्षणं विधातुं निर्णीतमिति मन्त्रालयस्य प्रवक्ता डा जागेश्वर गौतमः अज्ञापयत्। एवमेव उपवेशेन सिंहप्रासादस्य अभ्यन्तरे स्वच्छीकरणस्य कार्यं कुर्वतां कर्मचारिणां संक्रान्त व्यक्तेः सम्पर्के आगतानां सर्वेषां स्वास्थ्यकर्मिणाम् अत्यावश्यक सेवाकर्मिणां च चिकित्सकानां परामर्शानुसारेण परीक्षणं कर्तुं निर्णीतं वर्तते इति समाचारः।